प्रजापतिर्ह वा इदमेक एवास सहेक्षा चक्रे कथन्नु प्रजायेयेति सोऽश्राम्यत्स तपो तप्यतसोऽग्निमेव मुखाज्जनयाञ्चक्रे तस्मा द्वा अग्निरन्नादो मुखाद्धिजातो मुखेन ह्यन्नमद्यते स वा एषोऽग्रे देवतानां जायत तस्मादग्निर्नाम निर्हवैनामैतद्यदग्निरित्याहुः स उजातः पूर्वः प्रेयाय तत्त्वे पास्य द्वितीयमग्नित्वं पूर्वग्नो हि यन्तमाहुरग्र एतीति तस्माद्ध प्रजापतिर्विभयाञ्चकारान्नादं वा इममजीजन आत्मा नो नो वा इहान्यदन्नमस्ति यं वा अयन्नाद्य न यं वा अयन्नाद्यादिति काल्वालीकृतो हेयं तर्हि पृथिव्या स तद्धे पास्य मनसा साथैनमग्निर्व्या व्यात्तेनोपपर्यावर्तत तस्य भीतस्य स्वो महिमापचक्राम वा वै स्वो महिमा वाघैवास्मादपचक्राम स आ मन्ने वाहुतिमियेष स इत्युदमृष्ट तस्मादिदञ्चालोमकमिदं च तत्रो एव विभेदघृताहुतिं वापय आहुतिं वो भयं त्वेव तत्त्वयः साहास्मै न च दयाञ्चकारकेशश्मिश्रेवहासत मोशं धयेतिव्यौक्षत्तत ओषधयस्तम्बभूस्तस्म दोषधयो नाम सद्वितीयमुदमृष्ट तत्रो एव विवेदघृताहुतिं वापय आहुतिं वो भयं त्वेव तत्पयः साहास्मै छदयां चकार सह प्रजा पतिर्व्यचिकित्सज्जुहवानी माहौषामिति तग्गुस्वो महिमाभ्युवादजुहुधीति सविदाञ्चकारस्वो वै मामहिमाजुहुधीत्याहेति सस्वाहे ते वजुहवाञ्चकार तत एवासा उदीयाययोऽसौ तपति ततोऽयं प्रबभूवयोऽयं पवते ततोऽग्निश्शान्तः परां पर्यावर्तैष उ एव स्वाहकारस्य बन्धुस्तस्मादप्येतर्हि स्वा तर्हि स्वाहेत्ते वजुह्वति स एवग्नुहुत्वा प्रजापतिः प्रचाजायताग्नेश्च मृत्योरस्यता मानमत्रायतैवग्नुहवावप्रजायत एवमग्नेर्मृत्योरस्यता मानं त्रायते य एवं वेदा तञ्यत्रादोऽभ्या दधति यथा मातुर्वोपस्थात् पितुर्वा सम्भवेदेवग्नुहैव सम्भवति शरीरग्नुहैव स दहति तस्मादाहुर्नानाहिताग्निस्सम्भवतीति स यत्र हुत्वपामृष्ट ततो विकङ्कतस्तम्बभूव स वा एष वृक्षो यज्ञयो यज्ञपात्र्योह्ये तद्वेव विचिकित्साय जन्मय प्रजापतिर्व्यचिकित्सस वै स श्रेयस्य ध्रियत यः प्रचाजायताग्नेश्च मृत्यो रत्स्यत आत्मानमत्रायत श्रेयसि हवावद्ध्रियते व्यचिकित्सन्य एवमेतद्वेदा ते वा एते वीरा देवानाम जायन्तायमग्निर्योऽयं पवते सूर्य आहवा अस्य वीरो जायते य एतान् वीरान् देवानां वेदा ते होचुरस्मान् प्रजापतिः पिता जीजनतेति हन्तवयं तज्जनयामहै यदस्मानन्वसदिति तेह गायत्रेण तुष्टुविरे पहिङ्कारेण परिवृत्यते यत्पर्यवृण्वन्सो यज्ञो समुद्र इयमेव पृथिव्यास्तावस्तेह प्राञ्च उच्चक्रमुः पुनरेम इत्येद्गां जाताग्नो साहै नानुदीक्षहिं चकार ते विदां चक्रुरेश वावसा नो हिंकार इति ततो हार्वाक् सहिंकारानि सामा न्यपहिंकारानि हैव ततः पुरा बभूस्तस्मा दयि गौरुपजीवनीया साम नो हिंकारं विभर्त्युपजीवनीयो हवा बभवति य एतद्गो साम नो हिंकारं वेदा ते हो चुर्भद्रं वा इदमजी जनामहि य इमामजी जनामहीत्यन्नगुह्यजनयन्त न कृते ग्वन्नमस्ति यद्यगुह्यजनयन्त न कृते गुर्यज्ञस्तायते तद्वै तदेव यज्ञस्य नाम यदे तासां तस्मात् भद्रं पुण्यमिति परि हरेदुपनामुको हैनै यज्ञो भवति भक्षो हास्यैता भवन्ति एवं विद्वान् भद्रं पुण्यमिति परिहरति ताग्नोहाग्निरभितध्यौ मिथुन्ने नाग्नुस्यामिति ताग्नो सम्बभूव तस्य ग्नोरेतः प्रसिषे च तत्पयोग्नेर्हि वा एतद्रेतो तस्मादेता आमाः सत्यश्रुतं दुहते तस्मान्नानारूपाः सत्यसदृशमेव दुहते निसङ्काशमग्नेर्हिरेतस्तस्मात् प्रथमदुग्धमुष्णमिव भवत्यग्निरेतसग्नुहि ते होचुर्जुहवामः इदं प्रेतं जनयामः इति सहोवाचाग्निर्मह्यमेव प्रथमाय जुहुतेति मह्यमिति योऽयं पवते मह्यमिति सूर्यस्ते होचुरसम्पादयन्तः प्रजापतिं पितरं प्रत्यय मेति यस्मै स आह तस्मै प्रथमाय जुहवामेति स होवाच प्रजापतिरग्नय एव प्रथमाय जुहुतेति सस्वग्नो रेतो नुष्ठ्या प्रजनयिष्यत यति इति सूर्याय प्रजा प्रातरित्यथ यदेव हूयमानस्य व्यश्नुषे तत्तवेति ममुवाच यो यं पवते तदप्पे तर्हि तथैव तदप्येतर्हि तथैव जुह्वत्यग्नय एव सा यज्ञो सूर्याय प्रातरथ यदेव हूयमानस्य व्यश्नुते तदेतस्य ये शपवतेत एवं जुह्वतो देवा इमां प्रजातिं प्राजायन्त एयमेषां प्रजातिरिमां जितिमजयन्ने यमेष विजयन्ताग्निरेवेमं लोकमजयद्योऽयं पवते सोऽन्तरिक्षं दिवमेव सूर्यस्य य एवं विद्वाञ्जुहो ते ताग्नो हैव प्रजातिं प्रजायत एतां जितिं जयत्ते तेषाग्नो स लोको भवति सूर्यो हवा अग्निहोत्रम्